राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण द्वादश स्कंध 13 अध्याय 13 ट्रेक में।
ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम द्वादश स्कंध अथ प्रथमोध्याय। राजोवाच स्वधामानुगते कृष्णे यदुवंश विभूषणे कस्य वंशो भवत्पृथ्व्यामेतदा चक्ष्व मे मुने। स्वधामानुगते कृष्णे यदुवंश विभूषणे कस्य वंशो भवत्पृथ्व्यामेतदा चक्ष्व मे मुने। श्रीशुक उवाच योऽन्त्यः पुरञ्जयो नाम भाव्यो बारहद्रथो नृप तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् प्रद्योत संज्ञम् राजानम् कर्ता यत्पालकः स्तुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः। नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टत्रिंशोत्तरशतम् भोक्ष्यन्ति पृथिवीम् नृपाः। शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः। विधिसारः सुतस्तस्य जातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भावि दर्भकस्याजयः स्मृतः। नन्दिवर्धन आजेयो महानन्दी सुतस्ततः। शिशुनागादशैवैते षष्ट्युत्तरशतत्रयम् समाभोक्ष्यन्ति पृथिवीम् कुरुश्रेष्ठकलौ नृपाः। महानन्दिसुतो राजन् शूद्री गर्भोद्भवो बली। महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत्। ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः। स एकच्छत्राम् पृथिवीमनुल्लङ्घितशासनः। शासिष्यति महापद्मो द्वितीय इव भार्गवः। तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः। य इमाम् भोक्ष्यन्ति महीम् राजानः स्म शतम् समाः। नवनन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीम् मौर्या भोक्ष्यन्ति वै कलौ। स एव चन्द्रगुप्तम् वै द्विजो राज्येऽपि शेक्ष्यति। तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः। सुयसा भविता तस्य सङ्गतः सुयसः सुतः। शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति। शतधन्वा ततस्तस्य भविता तद्बृहद्रथः। मौर्यायेते दश नृपाः सप्तत्रिंशच्छतोत्तरम् समाभोक्ष्यन्ति पृथिवीम् कलौ कुरुकुलोद्वः। हत्वा बृहद्रथम् मौर्यम् तस्य सेनापतिः कलौ। पुष्पमित्रस्तु शृङ्गावः स्वयम् राज्यम् करिष्यति। अग्निमित्रस्ततस्तस्मात् सुज्येष्ठोऽथ भविष्यति। वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः। ततो घोषः सुतस्तस्मात् वज्रमित्रो भविष्यति। ततो भागवतस्तस्मात् देवभूतिरिति श्रुतः। शृङ्गादशैते भोक्ष्यन्ति भूमिम् वर्षशताधिकम्। ततः कण्वानियम् भूमिर्यास्यत्यल्पगुणान् नृप। शृङ्गम् हत्वा देवभूतिम् कण्वो मात्यस्तु कामिनम्। स्वयम् करिष्यते राज्यम् वसुदेवो महामतिः। तस्य पुत्रस्तु भूमित्रस्तस्य नारायणः सुतः। नारायणस्य भविता सुशर्मा नाम विश्रुतः। काण्वायना इमे भूमिम् चत्वारिंशच्च पञ्च च। शतानि त्रीणि भोक्ष्यन्ति वर्षाणाम् च कलौ युगे। हत्वा काण्वम् सुशर्माणम् तद्भृत्यो विशलो बली। गाम् भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः। कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः। श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः। लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः। मेघस्वातिश्चिबिलकाद्दटमानस्तु तस्य च। अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः। पुरीशभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः। चकोरो बहवो यत्र शिवस्वातिररिन्दमः। तस्यापि गोमती पुत्रः पुरीमान् भविता ततः। मेधश्रिरा शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः। विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः सलोमतिः। एते त्रिंशन्नृपतयश्चत्वारिब्दशतानि च षट्पञ्चाशच्च पृथिवीम् भोक्ष्यन्ति कुरुनन्दन। सप्ताभीरा आवभृत्या दशगर्दभिनो नृपाः। कङ्का षोडशभूपाला भविष्यन्त्यतिलोलुपाः। ततोऽष्टौ यमना भाव्याश्चतुर्दश तुरुष्टकाः। भूयोदश गुरुण्डाश्च मौना एकादशैव तु। एते भोक्ष्यन्ति पृथिवीम् दशवर्षशतानि च। नवाधिकाम् च नवतिम् मौना एकादशक्षितिम्। भोक्ष्यन्त्यब्दशतान्यङ्गत्रीणि तैः संस्थिते ततः किलिकिलायां नृपतयो भूतनन्दोऽथवङ्गिरिः शिशुनन्दिश्च तद्भ्राता यशो नन्दिः प्रवीरकः इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् तेषां त्रयोदशसुता भवितारश्च बाल्यिकाः पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च एककाला इमे भूपाः सप्तान्ध्राः सप्तकोसलाः विदूरपतयो भाव्या निषधाश्चत एव हि मागधानां तु भविता विश्वस्फूर्तिः पुरञ्जयः करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् प्रजाश्चा ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वैपुरी अनुगङ्गामाप्रयागं गुप्तां भोक्ष्यति मेदिनीं सौराष्ट्रावन्त्या भीराश्च शूरा अर्बुदमालवाः व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलं भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्च ब्रह्मवर्चसः तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः एते धर्मान्दितपराः फल्गुदास्तीव्रमन्यवः श्रीबालको द्विजग्नाश्च परदारधनादृताः उदितास्तमितप्रायाः अल्पसत्त्वाल्पकायुषः असंस्कृताः क्रियाहीना रजसा तमसावृताः प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।